ओत्यवःपारथमद्यातम् षष्ठमोदजे यमश्विना सुहवारुद्रवर्तने आसोर्याजैतस्थथोः पूर्वापुषम् सहवम् पुरःस्पृहम् भज्यम् वाजेष पूर्व्यम् स च नावन्दम् सुमतिभिः सोभरे विद्वेष समनेहसम् इहत्यापरभूतमा देवानमोऽभिरश्विना अर्वाचीना स्ववसे करामहे गन्दारदाशुषो गृहम् युवोरथस्य परिचक्रमीजत ईर्माण्यद्वामिषण्यते अस्माङ्गच्छा सुमतिर्वाम् शुभस्पति आधेनुरिवधावतो रथो यो वान्द्रिबन्धुरो हिरण्याभीषुरश्विना परिद्या वा पृथिवी भूषदिश्रुतस्तेन रा सत्यागतम् दशस्यन्तामनवे पूर्व्यन्दिभियवमृगेण कर्षथः तावा मद्यसुमतिभिः शुभस्पति अश्विना प्रस्तुमेमहे उपनोमादिनेवसो जातमृतस्य पथिभिः येभिस्त्रक्षम् वृषणात्रा सदस्यवम् महे क्षत्राजजिन्वथः अयम् वामद्रिभिः स्वतः सोमो नरावृषण्वसो आयातम् सोमपीतजेपिबतम् दाशुषो गृहे आहिरुहतमश्विनारथे कोशे हिरण्यये वृषण्वसु युञ्जाथाम् पीबरीरिषाः याभिः पत्थमवथो याभिरध्रिगुम् याभिर्बभ्रम् विजोषसम् ताभिर्नो मक्षोदोजमश्विनागतम् विषज्जतम् यदातुरम् यदध्रिगापो अध्रिगो इदाचिदह्नो अश्विनाह वामहे वयम् गेर्भिर्विपञ्जवाः ताभिराजातम् वृषणोपमेहवम् विश्वप्सम् विश्ववार्यम् इषामम् हिष्ठापुरभूतमानराजाभिकृविम् वा वृधस्ताभिरागतम् ताभिदाचिदहानाम् तावश्विना वन्दमान उपब्रुवे ता ऊनवोऽभिरेमहे ताभिद्दोषाता उषसि शुभस्पदेतायामन् रुद्रवर्तने मा नो मृत्ता जरिपवे वाजिने वसो परो रुद्रावदिख्यतम् आसुज्ञा जसुज्ञम् प्रातारथेनाश्विना वासक्षणे हुवे पिते वसोभरे मनोजवसा वृषणामदच्युता वक्षम् गमाभिरोतिभिः आरात्ताच्चिद्भोदमस्मे अवसे पूर्वेभिः पुरुभोजसा आ नो अश्वावदश्विना वर्तिर्याशिष्टम् मधुपातमानरा गोमद्दस्रा हिरण्यवत सुप्रावर्गम् सुवीर्यम् सुष्ठुवार्यमना धृष्टम् रक्षस्विना अस्मिन्नावा वाजाने वाजिनेव सो विश्वा वामानि धीमहे